सर्वे भवन्तु सुखिनः। सम्राजः अशोकस्य जन्मदिनम् आचर्यमाणम् आसीत्। तत्र अधीनाः नृपाः भागं गृहीतवन्तः आसन्। तदा राजा अशोकः एकां घोषणां कारितवान्, अत्युत्तमस्य राज्ञः सम्माननं करिष्यते इति। सः एकैकमपि नृपम् आहूय तत्तद्राज्यस्य विषयम् अपृच्छत्। तदा नृपाः स्वीयस्य राज्यस्य प्रगतिम् उत्साहेन वर्णितवन्तः। उत्तरराज्यस्य राजा गर्वेण अवदत्, प्रभो, अस्मिन् वर्षे मम राज्ये वृष्टिः सस्यसमृद्धिश्च सम्यक् अस्ति, अतः जनेभ्यः अत्यधिकं करशुल्कं स्वीकर्तुं शक्यते। एतस्मात् कारणात् मम राज्यस्य आयः त्रिगुणितः भविष्यति इति। अनन्तरं दक्षिणराज्यस्य नृपः, मम राज्ये अहं करशुल्कस्य सङ्ग्रहणं सुवर्णरूपेण कृतवान्, अतः अस्मिन् वर्षे मम राज्यभाण्डारे द्विगुणितं सुवर्णं सङ्गृहीतम् अस्ति इति अवदत्। पूर्वराज्यस्य राजा, अस्माकं राज्यस्य सीमायाः समीपे केचन दुष्टाः जनेभ्यः कष्टं यच्छन्ति स्म। ते दुष्टाः मया मारिताः, तेषाम् ऐश्वर्यं वशीकृतं च। इतः परं मया सह कोऽपि युद्धं न करिष्यति इत्युक्तवान्। पश्चिमराज्यस्य राजा गर्वेण, मया कर्मकराणां वेतनं न्यूनं कृतं, जनेषु अधिकं करशुल्कम् आरोप्य अधिकं धनं सङ्ग्रहीतम्। एतस्मात् मम आयः अधिकः जातः। अग्रिमे वर्षे अधिकम् आयं सम्पादयितुं कः मार्गः आश्रयणीयः इति मन्त्रिणः पृष्टवान् अस्मि इति उक्तवान्। एवम् एकैकोऽपि राजा मम राज्यस्य आयः द्विगुणितः जातः, त्रिगुणितः जातः इति अभिमानेन अवदत्। सर्वेषां कथनं समाप्तम्। तदा मगधराजः अशोकं नमस्कृत्य विनयेन अवदत्, महाप्रभो, कृपया अहं क्षन्तव्यः। मम धनागारे गतवर्षे यावत् आसीत् तस्य अर्धमपि नास्ति इति वक्तुं लज्जाम् अनुभवामि इति। तत् कथं सञ्जातम् इति पृष्टम् अशोकेन। गते वर्षे अस्माकम् आस्थानस्य कर्मकरेभ्यः कानिचन आनुकूल्यानि मया कल्पितानि। एतस्मात् कारणात् ते अधुना निष्कपटतया, निष्ठया, परिश्रमेण च कार्यं कुर्वन्ति, प्रजाः पुत्राः इव। तदर्थं तासां कष्टं मा भूदिति धिया मया करशुल्कं न्यूनीकृतम्। यात्रिकेभ्यः वसतिशालानां निर्माणं कारितं, यत्र तेभ्यः निःशुल्कभोजनव्यवस्था अपि अस्ति। चिकित्सालयाः निर्मिताः, निःशुल्कं चिकित्सां कर्तुं व्यवस्था च कल्पिता अस्ति। बहूनां कूपानां खननं कारयित्वा जलव्यवस्था उपकल्पिता। पाठशालाः आरब्धाः, येन विद्यार्थिनाम् अध्ययनार्थं योग्या व्यवस्था स्यात्। एतस्मात् कारणात् जनेषु धर्मश्रद्धा प्रवृद्धा अस्ति। मम दृष्ट्या धनात् ऐश्वर्यात् चापि प्रजानां हितमेव प्रमुखम्। एतस्मात् कारणात् धनागारे धनं न्यूनं जातम् इति विवरितवान् मगधराजः। एतत् श्रुत्वा सम्राट् अशोकः आनन्दितः। सः तं राजानम् आनन्देन आलिङ्ग्य अवदत्, जनानां रक्षणार्थं तेषां सुखदुःखानि अवगन्तुं च देवः अस्मभ्यम् एकम् उत्तमम् अवसरं कल्पितवान् अस्ति। नृपेण कथं शासनं करणीयम् इति मगधराजः दर्शितवान् अस्ति। यदि प्रजाः सुखेन जीवन्ति तर्हि एव राज्यं संरक्षितं भवति। अस्माकं जन्म सफलीकर्तुं किं करणीयम् इति मगधराजः दर्शितवान् अस्ति। भवन्तः सर्वे एतं मार्गम् अनुसृत्य धर्मं, राज्यं, प्रजाः च रक्षन्तु इति। ततः सः, एषः एव श्रेष्ठः राजा इति मया निर्णीतमस्ति इत्युक्त्वा स्वस्य धनागारात् 100,000 सुवर्णनाणकानि मगधराजाय उपायनीकृत्य तस्य सम्माननं कृतवान्।